अथ आदित्यस्तोत्रम् विनियोगः। ओम् अस्य श्री आदित्यस्तोत्रस्य आङ्गिरस ऋषिः त्रिष्टुप् छन्दः सूर्यो देवता सूर्यप्रीत्यर्थम् पाठे विनियोगः। नवग्रहाणाम् सर्वेषाम् सूर्यादीनाम् पृथक् पृथक् पीडा च दुःसमाराजन् जायते सततन्द्रणाम् पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः। सूर्यादीनाम् च सर्वेषाम् पीडा नश्यति शृण्वतः। आदित्यस्सविता सूर्य पूषार्क शीघ्रगौरविः भगस्त्वष्टार्यमाहंसो हेलिस्तेजो निदिर्हरिः। दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः विभावसुल्वेदकर्ता वेदाङ्गो वेदवाहनः। हरिदश्वकालवक्त्र कर्मसाक्षी जगत्पतिः पद्मिनीबोधको भानुर्भास्करः करुणाकरः। द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोऽनुदः जगन्नाथोरविन्दाक्ष कालात्मा कश्यपात्मजः। भूताश्रयो ग्रहपतिः सर्वलोक नमस्कृतः जपाकुसुमसङ्काशो भास्वानदिति नन्दनः। द्वान्तेभ सिंह सर्वात्मा सर्वनेत्रो विकर्तनः मार्तण्डो मिहिर सूरस्तपनो लोकतापनः। जगत्कर्ता जगत्साक्षी शनैश्चर पिता जयः सहस्ररश्मिस्तरणिर्भगवान् भक्तवत्सलः। विवस्वानादिदेवश्च देवदेवो दिवाकरः धन्वन्तरिर्व्याधिहर्ता दत्रुकुष्ठ विनाशनः। चराचरात्मा मैत्रेयो मितो विष्णुर्विकल्तनः। लोकशोकापहर्ता च कमलाकर आत्मभूः नारायणो महादेवो रुद्रः पुरुष ईश्वरः। जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः इन्द्रो नलोऽयमश्चैव नैऋतो वरुणो निलः। श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः। शौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः सर्वदेवमयो देवः कृष्णकामप्रदायकः। य एतैनमिभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः। पुत्रवान् धनवान् श्रीमान् जायते स न संशयः। रविवारे पठेद्यस्तु नामान्येतानि भास्तवः। पीडा शान्तिर्भवेत्तस्य ग्रहाणाम् च विशेषतः। सद्य सुखमवाप्नोति चायुर्दीर्घम् च नीरुजम्। इति श्रीभविष्यपुराणे आदित्यस्तोत्रम् सम्पूर्णम्।